एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रिय सभा सदस्यानाम् सप्तदश पदानाम् कृते अद्य मतदानम् जायमानमस्ति। निर्वाचनस्य कृते सम्पूर्णम् पूर्वकार्यम् प्रपूरितमस्तीति निर्वाचनायोगस्य प्रवक्ता नारायण प्रसाद भट्टराई संसूचितवान् वर्तते। राष्ट्रिय सभा सदस्यानाम् निर्वाचनस्य मतदानम् अद्य प्रातः 9 वादनात् 3 वादनम् यावत् सम्बद्धेषु प्रदेशेषु निर्धारितेषु मतदानकेन्द्रेषु जायमानमस्तीति आयोगेन ज्ञापितम् वर्तते। 18 सदस्यानाम् पदानि रिक्तीभूतानि सन्ति। परं तत्र नेपाली कांग्रेस दलस्य सुनील बहादुर थापा निर्विरोधम् निर्वाचितोऽस्ति। अतः सप्तदश सदस्यानाम् कृते सप्तानामेव प्रदेशानाम् राजधानीषु मतदानस्य स्थानानि निर्धारितानि वर्तन्ते। राष्ट्रियसभा सदस्यानाम् निर्वाचनस्य कृते प्रदेशसभा सदस्याः स्थानीयस्तराणाम् प्रमुखाः उपप्रमुखाः अध्यक्षाः उपाध्यक्षाश्च मतदातारः भवन्तीति वैधानिकी व्यवस्था वर्तते। निर्वाचनायोगेन प्रत्याशिनाम् वैयक्तिकम् विवरणम् सार्वजनिकृतमस्ति। एतद् विक्रमवर्षीयायाः प्रतिनिधिसभा सदस्यानाम् निर्वाचन निर्देशिकायाः 22 प्रकरणस्य अन्तर्गतायाः 10 अनुसूच्याः अनुसारेण प्रत्याशिभिः मनोनयनपत्रेण सह प्रस्तुतम् वैयक्तिकम् विवरणम् सार्वजनिकृतमस्तीति आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत्। निर्वाचन प्रक्रियाम् पारदर्शिनीम् निष्पक्षम् विश्वसनीयाम् च विधातुम् प्रत्याशिनाम् वैयक्तिकम् विवरणम् सार्वजनिककर्तुम् आवश्यकमस्तीत्यतः आयोगेन विदेहे विद्यमानायाः व्यवस्थायाः अनुसारेण सम्बद्धानाम् सर्वेषाम् प्रत्याशिनाम् विवरणम् आयोगस्य आधिकारिके वेब सञ्जाले प्रकाशितम् अस्तीति प्रवक्ता भट्टराई असूचयत्। अनेन कार्येण मतदातृणाम् सम्बद्धानाम् निकायानाम् सञ्चारमाध्यमानाम् नागरिकाणाम् च कृते प्रत्याशिनाम् विषये आवश्यकीम् सूचनाम् प्राप्तुम् सहजता भविष्यतीति विश्वासो निर्वाचनायोगेन व्यक्तोऽस्ति। प्रत्याशिनाम् वैयक्तिकम् विवरणम् आयोगस्य वेब सञ्जाले द्रष्टुम् शक्यते इति निर्वाचनायोगेन ज्ञापितमस्ति। एतद् विक्रम वर्षीयायाः प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य अन्तर्गतायाः समानुपातिक प्रणाल्याः कृते राजनीतिक दलैः प्रस्तुतानाम् गोप्यसूच्याम् सूचीकृतानाम् त्रयाणाम् प्रत्याशिनाम् विरूद्धे विरोध ज्ञापन पत्राणि पञ्जीकृतानि सन्ति। निर्वाचनायोगेन ह्य प्रकाशितायम् विज्ञप्तौ नेकपा एमाले दलस्य पक्षतः गोप्यसूच्याम् 97 क्रमे विद्यमानस्य सिराह जनपदस्य प्रत्याशिनः चन्द्रेश्वर मण्डलस्य, नेपाली कम्युनिष्ट दलस्य पक्षतः गोप्यसूच्याम् 62 क्रमे विद्यमानस्य ललितपुरस्य जीवन लामा इत्यस्य, राष्ट्रिय प्रजातन्त्र दलस्य गोप्यसूच्याम् 37 क्रमे विद्यमानस्य धनकुटा जनपदस्य कुमार बहादुर थापा इत्यस्य च विरूद्धे आयोगे विरोध पत्राणि पञ्जीकारितानि सन्तीति उल्लिखितम् वर्तते। नेपाली कम्युनिष्ट दलेन दलस्य आधिकारिकाणाम् प्रत्याशिनाम् विपक्षे प्रत्याशितायाः प्रस्तोतृणाम् विद्रोही प्रत्याशिनाम् समर्थने प्रचारे च संलग्नतायाः आरोपे 7 कार्यकर्तारश्च दलात् निष्कासिताः सन्ति। दलस्य संयोजकेन पुष्पकमल दाहाल प्रचण्डेन सह संयोजकेन माधव कुमार नेपालेन च ह्य प्रकाशितायम् विज्ञप्तौ एवं सूचितम् वर्तते। नेकपा दलेन सिन्धुली जनपदस्य हरिबुल गजुरेल, महेश्वर दाहाल, दाङ जनपदस्य कुलप्रसाद केसी, उदयपुर जनपदस्य मेजर राई, सिराह जनपदस्य धर्मनाथ शाह, राजकुमारी शाह, जीवछ शाहश्च दलात् निष्कासिता वर्तन्ते इति ज्ञापितम् अस्ति। देशस्य पश्चिम भूभागस्य उच्च पर्वतीय हिमालयीय जनपदेषु हिमपात वृष्टिश्च सम्भूते स्त। शुक्रवासरस्य सायंकालादेव बैतडी सहितानाम् बाजुरा, दार्चुला, बजाङ, डोटी, डडेलधुरा जनपदानाम् उच्च हिमालयीय क्षेत्रेषु वृष्ट्या सहैव हिमपातस्य कारणेन जनजीवनम् प्रभावितमस्तीति अस्माकम् संवाददातारः ज्ञापयन्ति। गत मास चतुष्टयात् वृष्टेः अभावस्य कारणेन कृषौ शुष्कतायाः अवस्थायां हिमपातस्य वृष्टेश्च पश्चात् कृषकाः प्रसन्नाश्च वर्तन्ते। अत्रान्तरे हिमपातस्य कारणेन अवरुद्धौ दशरथ चन्द जय पृथ्वी राजमार्गौ सञ्चालितौ स्तः। वैतडी जनपदस्य अनारखोली खोडपे श्रीभावर सतबाज दहिमाण्डौ चेति क्षेत्रेषु हिमपातस्य कारणेन मार्गौ एतौ अवरुद्धौ आस्ताम्। कर्णाली प्रदेशस्य हिमालयीय जनपदेष्वपि हिमपातः सम्भूतोऽस्ति। कर्णाली जनपदानां कर्णाली प्रदेशस्य हुम्ला सहितेषु मुगु हुम्ला डोल्पा जनपदेषु हिमपातः सम्भूतोऽस्ति। रुक्मपूर्व जनपदस्य हिमालयीय क्षेत्रे अन्येषु बागलुङ रोल्पा जनपदयोश्च हिमालयीय क्षेत्रेषु च हिमपातस्य कारणेन मध्यपर्वतीय लोकमार्गः अवरुद्धः आसीत्। सम्प्रति पुनः सञ्चालितोऽस्तीति प्ररिणा ज्ञापितं वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली कथयति आगामिन फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य माध्यमेन एमाले दलं देशनिर्माणस्य अभियाने प्रवर्तितं वर्तते। ललितपुरस्य चासलवर्तिनी दल केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे अध्यक्ष ओली देशनिर्माणस्य पक्षे प्रवर्तितुं सर्वान् नेतृ कार्यकर्तृन् आह्वयत। अध्यक्ष ओली काष्ठमण्डपात् झापा प्रत्यावर्तनस्य क्रमे भद्रपुर विमानस्थले सुरक्षाकर्मिभ्य अपमानजनक व्यवहार विहित इति वेदनाम् अकरोत्। नेपाली कम्युनिष्ट दलस्य संयोजक पुष्पकमलदाह प्रचण्ड स्वच्छस्य निष्पक्षस्य च निर्वाचनस्य प्रयोजनाय सर्वैः दायित्ववायवीर्भाव्यमिति निगदति। काष्ठमण्डपे ह्य आयोजिते दल प्रवेशन कार्यक्रमे संयोजक प्रचण्ड देशं वर्तमान संकटात् उन्मोचयितुं निष्पक्ष निर्वाचनस्य आवश्यकतायां बलं दत्तवान्। नेपाली कांग्रेस दलस्य सभापति गगन थापा मधेस प्रदेशस्य देश विकासस्य कार्य योजनस्य आवश्यकता वर्तते इत्यतः आत्मना मधेस प्रदेशात् प्रत्याशिता प्रस्तुतास्तीति स्पष्टीकरोति। काष्ठमण्डपे ह्य आयोजिते विमर्शन कार्यक्रमे सभापति थापा एवं स्पष्टीकृतवान् इति समाचारः।